గణపతిగుం హమామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభ్యః వాజినేవతీ ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభిచాకశీ యామిషుం గిరిశంత హస్తే వివర్ష్యస్తవే శివాం గిరిత్రతాం గురుమాహి గుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యతానః సర్వమిజ్జగత యక్ష్మగు సుమనా అసత్ అధ్యవోచదది వక్త ప్రథమో దైవ్యోభిషక్ అహీగుశ్చ సర్వాంజం భయం సర్వాశ్రయాతు ధాన్యః అసౌ యస్తాం గో అరుణ ఉత బప్రః సుమంగళః ఏ చేవాగుం రుద్ర అభితో దిక్షశ్రుత సహస్రశో వైశాగుం హేడ ఇమహే అసూయో వసత్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరణమః ప్రముంచ ధన్వనస్వముభయోరాగ్నియోర్జ్యాం యాశ్చ తే హస్త ఇషవ పరాత భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు దే నిషీర్య శల్యానాముకా శివో నః సుమనాభవ విజ్యం ధనుః కపార్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆబులస్య నిషంగతిః యాతే హేతే మీరుష్టవహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయ నాదతాయ దృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్మృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారి అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంధకాయ త్రికాద్వికాలాయ కాలాద్విరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यवाहवे से नान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्नेजराय त्वेषीमते पदीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषायाक्रन्दयते भक्तीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे एतेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेलवे परिचरायारण्यानाम् पतये नमो नमः सृगाविभ्यो जिगागुं लद्भ्यो मुष्टताम् पतये नमो नमो श्रीमद्भ्यो नक्तम् जलद्भ्य प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्चवो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्चवो नमो नम आयच्छद्भ्यो विसृजभ्यश्चवो नमो नमोऽस्यद्भ्यो विद्यभ्यश्चवो नमो नम आसीनेभ्य शयानेभ्यश्चवो नमो नम स्वपद्भ्यो जाग्रभ्यश्चवो नमो नम तिष्ठद्भ्यो दावभ्यश्चवो नमो नम सभाभ्यः सभापतिभ्यश्चवो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्चवो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्चवो नमो नम उगणाभ्यस्त्रिगुं हतेभ्यश्चवो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्चवो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्चवो नमो नमो गणेभ्यो गणपतिभ्यश्चवो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्चवो नमो नमो महद्भ्यः तुल्लकेभ्यश्चवो नमो नमो रथेभ्यो रथेभ्यश्चवो नमो नमो रथेभ्यो रथपतेभ्यश्चवो नमो नम सेनाभ्यसेनानिभ्यश्चवो नमो नमः शत्रुभ्यः सङ्गहेतृभ्यश्चवो नमो नम लक्षद्भ्यो रथकारेभ्यश्चवो नमो नम कुलालेभ्यः कर्मारेभ्यश्चवो नमो नम पुञ्जेष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नम स्वभ्यश्वपतेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः चर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपद्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च समृद्ध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नम शीघ्र्याय च शेभ्याय च नम ओर्ध्याय च वत्स्वन्याय च नम श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम ऊर्ध्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च वुत्तियाय च नम सोऽप्याय च प्रतिसज्ञाय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नम श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नम शूराय च पविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रवृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेतुधिमते च नम तेष्णे च वे चायुधिने च नम स्वायुधाय च सुधन्वने च नम श्रुत्याय च पत्याय च नम काट्याय च नीप्याय च नम सोद्याय च सरस्याय च नमो नाद्याय च वैशन्दाय च नम कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नम ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्नाय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोद्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः ติกัตยาย จ.ประภาตยาย จ. นมอิทินยาย จ. ประปัตยาย จ. นมเกกมศิลาย จ. ชยนาย จ. นมกปัตตินี จ. ปุลัสตเย จ. นโมโกสยาย จ. กฤหยาย จ. นมสัลปยาย จ. เกกยาย จ. นม काट्याय जगवरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नम पागुंसव्याय च रजस्याय च नम षष्ट्याय च हरित्याय च नमो लोप्याय ज्वलप्याय च नम ओर्ध्याय च सूर्याय च नम पर्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिगते च नम आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानागो हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिहतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसत्पते दरिद्रन्नीललोभिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्च नाम मत् याते रुद्रशिवा तनो शिवा विश्वाकभेषजे शिवा रुद्रस्य भेषजे तयानो मृगजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रबलामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम्बुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुराय जे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्पकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीशः मानस्तोकेतन एवान आयुषिमानो गोषुमानो अश्वेषु दीर्शः वीरान्मानो रुद्रभावितो वदेर्हविष्मन्तो नमसा विदेवते आराते गोग्र उत पोरुषग्ने क्षयद्वीराय सुम् नमस्ते अस्तु रक्षा च नो अदि च देव ब्रूयता च न शर्म यच्चद्विबर्हा सुहिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् रुद्रत्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतेर्णक्तु परित्रेशस्य दुर्मदिरघायो अवस्तिरामगमद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निदाय कृत्यम् बलानवाचर पिनाकम् विव्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वदन्मानि धन्मसे अस्मिन्महत्यन्नवेन्दरिक्षे भव अति नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाचिति कण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु तस्मे जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपदो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिणः यगेतावन्तश्च भूयागुन्दश्च दिशो रुद्रावितस्थिरे तेषागुन्दाश्रयो जने वधन्मानि जन्मसि नमो रुद्रेभ्यो गे पृथिव्याम् येन्दरिक्षे गे दिव्ये शामन्नम् मातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् भोजम् भेदधा त्र्यम्बकय्यजामहे सुगन्धिम् मुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् वाचा मृत्यो मत्यायहन्दवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् रन्धिरतिरुद्रो मा विषान्दकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युमे पाहि तमस्तु हि यश्लिषस्व दन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे सजो यगुम् शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ यज्ञ विष्णो सजोष सेवावद्धन्तो वाङ्गिरः द्युम्नैवाचेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे स्वश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे स्वहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्तानि च मे परोगुंषि च मे शरीराणि च मे जयैष्ट्यम् च माधिपत्यम् च मे मन्योश्च मे भामश्च मे मश्च मे भश्च मे देवा च मे महिमा च मे परिमा च मे प्रतिमा च मे वश्वा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वचश्च ಚ ಮೇ ತ್ವಷ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಶ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಶ್ಚ ಮೇ ಕೃಪ್ತಂ ಚ ಮೇ ಕೃತ್ಯಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇಣು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂದಾ ಚ ಮೇ ಧಟ್ಟಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವೆಚ್ಚ ಮೇ ಯಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಶೀಲಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ದೇವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ತೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸಗ್ಧಿಶ್ಚ ಮೇ ಸಪೇತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮೌತಿಥ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭು ಚ ಮೇ ಪ್ರಭು ಚ ಮೇ ಬಹು ಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೂಯವಾಶ್ಚ ಮೇನಂ ಚ ಮೇ ಸುಚ್ಚ ಮೇ ಬ್ರೀಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಬಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ರಾಶ್ಚ ಮೇ ಕಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಧುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ವಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಸೀಸಂ ಚ ಮೇ ತಪುಶ್ಚ ಮೇ ಶಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮಾಗ್ನಿಶ್ಚ ಮಾಪಶ್ಚ ಮೇ ವಿರುದಶ್ಚ ಮಾಓಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮಾರ್ಥಶ್ಚ ಮಹೇಮಶ್ಚ ಮಹಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀಶ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೌ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮರುಧಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇಂದರಿಕ್ಷಂ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ अगुंसश्च मेदश्नश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसश्च मेन्दर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रदे प्रस्थानश्च मे शुक्रश्च मे मन्देश म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे तिक्रात्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माघेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे ष्णश्च मे पार्थिवतश्च मे आर्योजनश्च मे इत्पश्च मे बर्हिश्च मे वेदिश्च मे दिष्णयाश्च मे सृजश्च मे चमसाश्च मे ग्रामाणश्च मे स्वरवश्च म उपरवाश्च मे ऋषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे बोधभृच्छ म आधवनीयश्च म आग्नेर्दम् च मे हविर्दानम् च मे गृहाश्च मे तदश्च मे प्रोणाशाश्च मे पजताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्नेश्च मे कर्मश्च मेऽर्कश्च मे सौर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे चक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दृत्यवाच्च मे दृत्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च मरुषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताघुश्रो यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसदिश्च मे त्रयोविगुंसदिश्च मे पञ्चविगुंसदिश्च मे सप्तविगुंसदिश्च मे नवविगुंसदिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे अष्टौ च मे द्वादश च मे षोडश च मे विगुंसदिश्च मे चतुर्विगुंसदिश्च मे अष्टाविगुंसदिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारि गुंसच्च मेष्टा चत्वारि गुंसच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्तिश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पति रुद्धा मदानि शगुंसि सद्विश्वे देवा सोऽक्तवा च पृथिविमा धर्मा माहि गुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतिम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यत्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः तच्छय्योरावृणीमहे गातुय्यज्ञाय गातुय्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपाद् सवोमिम् विश्वतो मृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतयच्च भव्यम् उदामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा अतोच्यायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादो त्व उदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराणजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञवतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्वशरद्धवे सप्तास्यासनुपरिदयः त्रिसप्त समिदकृता देवा यज्ञज्ञम् तन्वाना अभद्रन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारिषयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभयादतः गावो अजग्निरे तस्मात् तस्माज्जात अजावयः यत्पुरुषम् व्यददुः कलिदा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावुरुपादावुच्येते ब्राह्मणो अस्यवकमासीत् बाहुराजन्यकृतः उरु तदस्य यद्वैष्यः पद्यागुं श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्टौद्यौ समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवसयलास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रमित्वान् ब्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवा तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विददद्रूपमेति तत्पुरुषस्य विश्ववाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा रक्षय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्ति मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमेहणि कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणा भरः कृमीनागुम् राजा अप्येषागस्तपतिर्भरः अधो माताधो पिता अधो स्थूरा अधो क्षुद्राः अधो कृष्णा अधो श्वेता अधो आशादिका हता श्वेता भिस्सह सर्वे हताः आहरावद्या श्रुतस्या विशो यथा तत्सत्यम् यदमयमस्य जम्भयोः आददामि तथाहि तत् खण्डते ओ शान्ति शान्ति शान्तिः ॐ नासदासीत् नो सदासीत् तदानीम् नासीद्रजो नो व्योमा परोजत् किमावरेव कुहकस्य शर्मन् अम्भक्यमासीत् ग्रहणम् गभीरम् न मृत्युरमृतम् दर्हिणा रात्र्या अन्न आसीत् प्रकेतः आनीतवादग्रस्वधया तदैकम् तस्माद्धान्यनः परः किञ्चनास तम आसीत् तमसा गूढमग्रे प्रकेतम् सलिलगुम् सर्वमाहितम् तुच्छेनावहितम् यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तते मनसोरेद प्रथमम् यदासीत् सतो बन्धुमसति न विन्दन् हृदि प्रदेश्या कवयो मनीषा तिरश्चीनो विदतो रश्मिरेषाम् अदस्विदासीदुपरिस्विदासीद् रेतोदासन्महिमान आसन् स्वदा अवस्तात् प्रयति परस्तात् को अद्धा वेदक इह प्रवोचत् कुत आजाता कुलय्यम् विसृष्टिः अर्वाग्देवा अस्य विसर्जनाय अथापो वेदयत आबभूव इयम् विसृष्टिर्यत आबभूव यदि वादते यदि वाना यो अस्याध्यक्ष परमे व्योमन् सो अङ्गवेद यदि वानवेद ओ शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वै वारुणिः वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मागेतत्प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुंहोवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ते यत्प्रयञ्जभिसंविशन्ते तद्विजिज्ञासत्व तद्ब्रह्मेते सतपोतप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ते अन्नम् प्रयञ्ज विसंविशन्ते ते తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోతప్యత సతపస్తత్వా ప్రాణో బ్రహ్మేతి వ్యజానాద్ ప్రాణాధ్యేవ ఖల్విమాని భూతాని జాయందే ప్రాణేన జాతాని జీవందే ప్రాణం ప్రయంద్య విసంవిశందేతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోదప్యత సతపస్తత్వా మనో బ్రహ్మేతి వ్యజానాద్ మనసోక్యేవ కల్విమాని భూతాని జాయంతే మనసా జాతాని జీవంతే మన ప్రయంజ్య విసంవిశందేతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోతప్యత సతపస్తత్వా విజ్ఞానం బ్రహ్మేతి వ్యజానాద్ విజ్ఞానాధ్యేవ ఖల్విమాని భూతాని జాయంతే విజ్ఞానేన జాతాని జీవంతే విజ్ఞానం ప్రయంజ్య విసంవిశందేతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోతప్యత సతపస్తత్వా ఆనందో బ్రహ్మేతి వ్యజానాద్ ఆనందాధ్యేవ ఖల్విమాని భూతాని జాయంతే ఆనందేన జాతాని జీవంతే ఆనందం ప్రయంజ్య విసంవిశందేతే సైషా భార్గవే వారుణీ విద్యా పరమే వ్యోమన్ ప్రతిష్ఠిత యగేవం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మ వర్చసేనా మహాన్ కీర్త్యా అన్నం న నింద్యాత్ తద్వ్రతం ప్రాణో వా అన్నం శరీరమన్నాదం ప్రాణే శరీరం ప్రతిష్ఠితం శరీరే ప్రాణ ప్రతిష్ఠితః తదేతదన్నమన్నే ప్రతిష్ఠితం సయగేతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మ వర్చసేనా మహాన్ కీర్త్యా అన్నం న పరిచక్ష్యేత తద్వ్రతం ఆపో వా అన్నం జ్యోతిరన్నాదం అప్సు జ్యోతి ప్రతిష్ఠితం జ్యోతిష్యాప ప్రతిష్ఠిత తదేతదన్నమన్నే ప్రతిష్ఠితం సయగేతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మ వర్చసేనా మహాన్ కీర్త్యా అన్నం బహుకుర్వీత తద్వ్రతం పృథివీ వామన్నం आकाशो नादः पृथिव्यामाकाश प्रतिष्ठितः आकाशे पृथिवे प्रतिष्ठिता सदेतदन्नमन्ने प्रतिष्ठितम् सयेतदन्नमन्ने प्रतिष्ठितम् वेद प्रतिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवच्चसेना महान् कीर्त्या न कञ्चन वसतो प्रत्याचक्षेत तद्व्रतम् तस्माध्ययाकया च विधया वक्त्वन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम् राद्धम् मुखतोऽस्मा अन्नगुम् राध्यते एतद्वै मध्यतोऽन्नगुम् राद्धम् मध्यतोऽस्मा अन्नगुम् राध्यते एतद्वान्ततो अन्नगुम् राद्धम् अन्ततोऽस्मा अन्नगुम् राध्यते य एवम् वेद क्षेमगिति वाचि योगक्षेमगिति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषेतमाज्ञाः अथ दैवी तृप्तिरिति पृष्ठौ बलमिति विद्युते यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्ववित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मण परिमल इत्युपासीत पर्येणम् म्रियन्ते दुषन्तः स पत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवम् विद अस्मान् लोकात्प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्ये कामरूप्यनुसञ्चरन् एतत्सामगायम् नास्ते हा अहमन्नादो अहमन्नादो अहमन्नादः अहग्रश्लोककृदः अग्रश्लोककृदः अग्रश्लोककृद अहमस्मि प्रथमजारुदास्य पूर्वम् देवेभ्यो अमृतस्य नाये यो मा ददातु सै देव मा अहमन्नमन्नमदन्तमाद्मि अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योतेः य एवम् वेदा इत्युपनिषत् सहनाभवतो सह नौ भुनक्तो सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः